अग्ने एषोम विभंसुमे शृणुतम् वृषणाहवम् प्रतिसोक्तानि हर्यतम् भवतम् दाशुषेमजाः अग्ने एषोमाजो अद्य वा मिदम् वचः स पर्यते तस्मै धत्तम् सुवीर्यम् गवाम् पोषम् स्वश्व्यम् अग्ने एषोमाज आहुतिञ्जो वान्दशाद्धविष्कृतिम् स प्रजया सुवीर्यम् विश्वमाजुर्विष्णवत् अग्ने एषोमाचेति तद्वीर्यम् वाञ्यदमुष्णेतमभसम् पटिङ्गाः अभातिरतम् वृषजस्य शेषो विन्दतम् ज्योतिरेकम् बहुभ्यः युपमेतानि दिविरोचनान्यग्निश्च सोमसक्रतो अधत्तम् युवम् सिन्धोऽङ्ग्रभिषस्तेरभद्यादग्ने एषामवमुञ्जदङ्ग्रभीतान् आन्यम् दिवो मातरिष्वा जभारामथ्नादन्यम् वरिष्येन अद्रेः अग्ने एषोमा ब्रह्मणा वा वृधानोरञ्यज्ञाय चक्रधुरलोकम् अग्ने एषोमा हविषः प्रस्थितस्य वेदम् हर्यतम् वृषणाजुषेधा सुशर्माणा स्ववसा हि भूतमथा धत्तम् यजमानाय संयोः यो अग्निशोमा हविषा स पर्याद्दे भद्रे च मनसा यो घृतेन तस्यौ रथम् रक्षतम् पादमम् हसो विषेजनाय महि शर्म यच्छतम् अग्ने एषोमा स वेदसा सहो देवनतम् गिराः सन्धे भद्रापभोवधुः अग्ने एषोमा वनेन पाञ्जो वा घृतेन दाशति तस्मै एदेदयतम् बृहत् अग्ने एषोमा विमानिनो युवम् हव्याजुजोषतम् आयातमुपनः स च अग्ने एषोमापि व्रतमर्वतो न आप्यायन्तामुसृजा हव्यसूदाः अस्मे बलानि मघवत्सु धत्तम् कृणुतन्नो अध्वरम् सृष्टिमन्तम्